सर्वेभ्यः नमस्कारः. अद्य सिद्धान्तकौमुद्याः हलन्तपुल्लिङ्गप्रकरणे अष्टमः पाठः, सेप्टेम्बर् मासस्य द्वादशः दिनाङ्कः. येनाक्षरसमां नायम् अधिगम्य महेश्वरात् तत्स्मिन् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते. हलन्तपुल्लिङ्गप्रकरणे नकारान्ताः पुल्लिङ्गाः अधीयन्ते. तत्र गतसप्ताहे नकारान्तः पुल्लिङ्गः प्रतिदिवन् शब्दः आसीत्. आदौ राजन् शब्दः अधीतः नकारान्तपुल्लिङ्गेषु साधारणशब्दः, ततः प्रतिदिवन्. तत्र को विशेषः? राजन् शब्दात् यत्र शब्दे विशेषः भवति तत्रैव अस्माभिः अवधानं दातव्यं भवति. कः विशेषः इति चेत्, शसादिषु अजादिषु विभक्तिषु अल्लोपे कृते, अर्थात् भसंज्ञायां सत्याम् अल्लोपोनः इत्यनेन अल्लोपः भवति. तत्तु अल्लोपस्तो राजन् शब्देऽपि भवति. अल्लोपे कृते हलिच इत्यनेन उपधादीर्घः अत्र विशेषः. प्रतिदिव् न् अस् इति स्थिते दीर्घे कृते प्रतिदीव्नस् इति भवति. ऋत्वविसर्गयोः कृतयोः प्रतिदीव्नः, प्रतिदीव्ना, प्रतिदिवभ्याम् प्रतिदिवभिः. हलादिषु प्रत्ययेषु नकारस्य लोपः ह्रस्वश्च श्रूयते. अजादिषु प्रत्ययेषु अकारस्य लोपः हलिच इत्यनेन उपधादीर्घश्च. स एव अस्य शब्दस्य विशेषः. ततः नकारान्तः पुल्लिङ्गः यज्वन् शब्दः. यज्वन् शब्दे पुनः शकादिषु अगादिषु भक्तिषु न संयोगाद् वमन्तात् इति सूत्रेण अल्लोपः निषिध्यते. वकारान्तवकारान्तसंयोगात् परस्य अन् इत्यस्य अकारस्य लोपो न भवति. जिव् यज्वन् इत्यत्र जकारवकारयोः संयोगः अस्ति, वकारान्तसंयोगः, तस्मात् परः अन् तस्य अनः अकारस्य लोपो न भवति इति निषेधात् यज्वन् अस् इति स्थिते अल्लोपाभावे यज्वनः, यज्वना, यज्वभ्याम् सर्वत्र अकारः श्रूयते. फलादिषु विभक्तिषु मकारस्य लोपः, अजादिषु विभक्तिषु तु मकारोऽपि श्रूयते इति विशेषः. एवमेव ब्रह्मन् शब्दः, अत्र मकारान्तसंयोगः. ब्र हकारमकारयोः संयोगः, ततः परः अन् तत्रापि अन्नोपनिषेधः. तेन ब्रह्मणः, ब्रह्मणा, ब्रह्मभ्याम् इत्यादीनि रूपाणि भवन्ति. अग्रे नकारान्तः पुल्लिङ्गः वृत्रहन् शब्दः. वृत्रं हतवान् इत्यर्थे वृत्र इति उपपदात् परस्य हनुधातोः कृत् प्रत्ययः क्रियते. कृत् प्रत्ययः सर्वापहारी लोपः वृत्रहन् इति प्रातिपदिकम्. तत्र को विशेषः? सर्वनामस्थानेषु इन्हन् पूषार्यम्णां शौ, कुतः पूर्वत्र अर्थात् राजा राजानौ इति वा यज्वा यज्वानौ इति वा सर्वत्र सर्वनामस्थाने चासं बुद्धौ इत्यनेन सर्वनामस्थाने करे नान्तस्य उपधायाः दीर्घः स्यात् इत्यनेन दीर्घः श्रूयते. राजन् शब्दः राजा राजानौ राजानः इत्यत्र दीर्घः सर्वत्र भवति पूर्वत्र अधीतेषु सर्वेषु. अत्र तस्य उपधादीर्घस्य कश्चन नियमः अस्ति. इन्हन् पूष अर्यम्णां शौ एतेषां चतुर्णाम् इन् इन्नन्तानां हन् हन् धातोः पूषा पूषन् शब्दस्य अर्यमण अर्यम्णाम् अर्यमन् शब्दस्य च शौ षि इत्येतस्मिन् परे एव उपधादीर्घः. षि सर्वपुंसकलिङ्गे षि सर्वनामस्थानं, षि इत्यस्य सर्वनामस्थानमस्ति, तस्मिन् पदे एव उपधादीर्घः भवति. अन्येषु सर्वनामस्थानेषु न भवति इति उच्यते. तेन किं भवति व्रतहन् सु इति स्थिते उपधानीकः न स्यात् इति स्थितिः तदा पुनः विशेषेण सौ च इति सूत्रम् अस्ति तेन उपधानीकः विधीयते अर्थात् शौ परे सौ परे च उपधानीकः भवति अनेन सुप्रत्यये परे एव उपधानीकः वृत्रहन् सु वृत्रहान् सु इति भवति उपधानीके ततः सुलोपे नलोपे वृत्रः इति रूपम् अन्येषु सर्वनामस्थानेषु औ जस् अम् औ इत्यादिषु उपधारीकः न भवति वृत्रहणौ वृत्रहणः इति सर्वत्र ह्रस्वः एव श्रूयते एकादशतरपदेणः इति सूत्रेण नत्वं भवति वृत्रहन् अस्ति पूर्वपदे निमित्तमस्ति रेफः उत्तरपदे नकारः समानपरत्वाभावात् अष्टत्वं व्यवायति इति न प्राप्नोति तदा एकादुत्तरपदे नः नः इति उच्यते एकाद् उत्तरपदं यस्य यत्र तस्मिन् समासे यत्र समासे उत्तरपदम् एकाद् भवति वृत्रं हतवान् इति उपपदसमासः वृत्रहन् इत्यस्ति हन् इति एकाच् अस्ति एकाच् उत्तरपदं तस्मिन् समासे पूर्वपदस्थात् निमित्तात् परस्य निमित्तं पूर्वपदे भवेत् रेफः वृत्र इति पूर्वपदे अस्ति प्रातिपदिकान्त नु विभक्तिस्थस्य नस्य नकारः प्रातिपदिकस्य अन्ते भवेत् नुमः नकारः भवेत् अथवा विभक्तेः नकारः भवेत् अत्र तु प्रातिपदिकान्ते नकारः इति तादृशस्य नकारस्य नित्यं नत्वं भवति इत्यनेन नत्वे कृते वृत्रहणौ वृत्रहणः वृत्रहणं वृत्रहणौ इति जातम् शत् प्रत्यये वृत्रहन् अस् इत्यस्ति भगम्यायाम् अल्लोपो नः इत्यनेन अल्लोपो भवति वृत्रस् नु अस् ततः को हन्तेर् निन्येषु इति सूत्रम् हन्तेः हकारस्य कुत्वं स्यात् नीति णितिचप्रत्यये मकारे च परे नीतिप्रत्यये परे णितिप्रत्यये परे तथैव मकारे परे हन्तेः हकारस्य कुत्वं भवति कुत्वम् इत्यनेन वर्गचतुर्थः घकारः आदेशो भवति तेन वृत्रघ् नु अस् वृत्रे विसर्गे कृते वृत्रघ्न वृत्रघ्नः इति रूपम् वृत्रहणं वृत्रहणौ वृत्रघ्नः अत्र प्रश्नः अत्रापि एकादुत्तरपदेणः इति दत्तं भवेत् किल इति प्रश्नः नियमाः तथैव सन्ति पूर्वपदस्थात् निमित्तात् परस्य मकारस्य रेफः पूर्वपदे अस्ति मकारः उत्तरपदे अस्ति प्रातिपदिकान्ते मकारः अस्ति सर्वे नियमाः यथा वृत्रहणौ इत्यत्र अस्ति तथैव अत्रापि सन्ति किमर्थम् अत्र नत्वं न भवति इति प्रश्नः नत्वनिवारणार्थं कश्चन उपायश्चिन्तनीयः प्रयोगे नत्वं नास्ति इति सत्यं विघ्नो नत्व इन् प्रयोग सो हौ डु वि प्रिवेण्ट् दट् नत्व फार् दट् देर् इस् संथिङ्ग् विच् नीड्स् टु बि डन् and unfortunately there is nothing which Panini has directly told to prevent Natva here. So, Kastana Upayaha Ashriyata Yoga Vibhagaha iti. Okay. Before that there is a doubt arise that there is no Ekaj. When Kakara is lost, it is not Ekaj. So, the Ekaj does not refer to the current condition of the particle. Ekaj uttarapadam yasmin samase. In the samasa, as long as there is the uttarapada is Ekaj. Right? So, samasaha atrapi vritram hatavan. Vritra han ityeta yoreva samasaha. अत्रापि समासे उत्तरपदस्य एकाच्त्वम् अस्ति सो इदानीम् अल्लोपे कृतेपि इदानीं तस्य परिगणनं नास्ति सो एस् लाङ्ग् एस् द समास वेन् वि आर् डूङ्ग् द समास वि टेक् इस् देर् एकाच् उत्तरपद इस् एकाच् आर् नाट् ओके सो किं करणीयम् इति प्रश्नः
योगविभागः इति कश्चन उपायः आश्रियते। योगविभागः पूर्वमपि कदाचित् अधीतः, विसीनियोगविभागः I'm sure we have seen somewhere, but maybe not directly. We haven't studied a sutra with it. I don't remember. Anyway. Yoga vibhaga. Yoga nama is in Uyaha and U, right. Raghuhya Samya Sutra. Uya U so was a single sutra, so we split that into Uyaha and U. Right. So Yoga Vibhagaha, Yogaha Nama Sutram, Sutrasya Chedaha Kriyate. So what was a single sutra is being split into two sutras for some purpose. We do not do it. Bhashyakarena Yoga Vibhagaha Kriyate. Kadachit Kimapi Prayojanam Manasi Nidhaya. इदानीं तथैव सूत्रं हन्तेरत्पूर्वस्य इति सूत्रमस्ति। सो हन्तेरत्पूर्वस्य इति सूत्रम् अष्टमाध्याये चतुर्थपादे द्वाविंशतितमं सूत्रम्। सो इट् हेस् बीन् स्प्लिट् इन् टु टु, हन्तेः इति एकं सूत्रम्, अत्पूर्वस्य इति अपरं सूत्रम् इति कृतमस्ति योगविभागस्थितः। किमर्थम् इति पश्यामः। हन्तेः इति सूत्रं प्रथमं सूत्रम् एकमेव पदं भवति, णप्रकरणे भवति इदं सूत्रम्। रषाभ्यां नोणः समानपदे इत्यतः नोणः इति अनुवर्तते। उपसर्गादसमासेऽपि णोपदेशस्य इत्यतः उपसर्गात् इति अनुवर्तते। कोऽर्थः उपसर्गस्थात् निमित्तात् परस्य हन्तेः नस्य णत्वं स्यात्। उपसर्गः सर्वदा भिन्नं पदं भवति। सो उपसर्ग पदत्वपेडेन्सेस्, सो उपसर्गे निमित्तम् अस्ति हन्तेः नकारः इति चेत् समानपदे इति नियमात् नष्टुं नस्य विशेषतः उच्यते। उपसर्गस्थात् निमित्तात् परस्य, यदा उपसर्गे निमित्तः अस्ति तस्मात् परस्य हन्तेः नकारस्य णत्वं भवति। हनुधातोः नकारस्य स्थाने णत्वं भवति इति उच्यते। उदाहरणं किं? प्रहण्यात् इति प्र उपसर्गपूर्वकात् हनुधातोः विधिलिङ्गकारः, यात् इति प्रत्ययः अस्ति। उपसर्गे निमित्तं प्र इति उपसर्गे रेफः, हनुधातोः अणत्वं भवति इति अस्य सूत्रस्य प्रयोजनम् एतावदेव। हन्तेः इति सूत्रेण उपसर्गे निमित्तं भूत्वा हन्तेः नकारः अस्ति चेत् तस्य अणत्वं भवति इति उच्यते। अग्रिमं सूत्रं किमस्ति? अत् पूर्वस्य। सो शी नोटिस् बोथ् आफ् देम् हाव् द सेम् नम्बर्। हन्तेरत् पूर्वस्य इति सूत्रम् हेस् बीन् ब्रोकन्, वन् इस् हन्तेः, द अदर् इस् अत् पूर्वस्य। अत्रापि एकमेव कथमस्ति, सर्वमनुवर्तते। दशाभ्यां नोणः इत्यनेन नोणः इति, उपसर्गात् इति, हन्तेः इति पूर्वसूत्रमपि अनुवर्तते। अस्य सूत्रस्य कोऽर्थः? इदं नियमसूत्रम्। हन्तेः अत्पूर्वस्यैव नस्य अणत्वं नान्यस्य, अनुधातोः अकारात् पूर्वस्यैव, क्षम्यताम्, अकारपूर्वस्यैव, अनुधातोः नकारात् प्राक् अकारः अस्ति चेत् तादृशस्य नकारस्य अणत्वं भवति, अन्यस्य न। सो वेर् द नकार आफ् Hanudhatu is preceded by the akara, so only there will be anatma and not elsewhere. That's what it says. So an example for this sutra is, there was an example, Pradhanti, I think is the example given in the text. प्र हनुधातुः झि प्रत्ययः, झि प्रत्ययपरे पुनः तत्र अल्लोपः कृतः, अल्लोपे कृते प्र हृ नृ अन्ति इत्यस्ति। होहन्तरणिन्नेषु इत्यनेन हस्वे यह प्रघ में अंति अत्र पुनः उपसर्गस्थः निमित्तः धनधातोः नकारे नकारः अस्ति तस्य अकारपूर्वत्वं नास्ति धन इस् नाट् प्रिसीडेड् बै अकार देर्फोर् देर् विल् बि नो अत्र इस् द प्रयोजन फोर् दिस् सूत्र एक्चुलि वेन् वि टेक् टुगेदर् हन्तेर् अपूर्वस्य इति सूत्रं यदि एकत्र इफ् वि टेक् इट् टुगेदर् वाट् विल् इट् मीन् उपसर्गस्थात् निमित्तात् परस्य अत्पूर्वस्य हन्तेः नकारस्य नत्वं भवति सो वेन् देर् इस् अ निमित्ता इन् उपसर्ग इफ् देर् इस् अ नकार आफ् हनुधातु विच् इस् प्रिसीडेड् बै नकार इट् विल् गेट् णत्व इस् वाट् यु विड् गेट् इफ् यु जायिन् द सूत्र इफ् द सूत्र इस् इन् इट्स् टोटल् फार्म् देन् दट् इस् द मीनिङ्ग् विच् यु गेट् यूसिङ्ग् विच् यु केन् डिरैव् बोत् द एक्साम्पल् विच् यु हव् गिवन् द एक्साम्पल् विच् इस् गिवन् बीङ्ग् गिवन् फार् हन्तेः इस् प्रहण्या तत्र णत्वं भवेत् अस्य सूत्रस्य वस्तुतः हन्तेरत्पूर्वस्य इति सूत्रस्य उदाहरणद्वयम् अपेक्षते हन्तेः इति सूत्रस्य किम् उदाहरणं प्रहण्यात् प्रहण्यात् इत्यत्र णत्वं भवेत् प्रघ्नन्ति इत्यत्र णत्वं न भवेत् सो दट् इस् द पर्पस् आफ् दिस् सूत्र टु एन्शोर् देर् इस् णत्व इन् प्रहण्यात् अण्ड् देर् इस् नो णत्व इन् प्रघ्नन्ति सो वाट् पाणिनि सेड् हन्तेः अत्पूर्वस्य सो अत्पूर्वस्य हन्तेः नकारस्य णत्वं भवति सो तेन प्रहण्यात् इत्यत्र भवति अकारपूर्वत्वम् अस्ति नकारस्य प्रघ्नन्ति इत्यत्र न भवति सो वेदर् इट् इस् टु सूत्रास् आर् वन् सूत्र यु आर् अचीविङ्ग् द आब्जेक्टिव् सो वाट् इस् द पायिण्ट् आफ् योगविभाग द क्वश्चन् योगविभागसामर्थ्यात् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा एकादुत्तरपदेणः इति णत्वमपि निवर्तते So, the thing is, whenever there is a niyama, niyama sutra, or say when there is an apavada sutra or some sutra which is overruling some other sutra, so vidhi or pratishedha, I mean if there is already a nishedha and a vidhi is being made, or if there is already a vidhi and a pratishedha being made, anantarasya bhavati. That vidhi or pratishedha will apply only to the sutra which is immediately or which is the closest to the pratishedha sutra. For example, if there is a sutra, vidhi sutra, there are two vidhi sutra. Vidhi sutra dvayam asti tataha pratishedha uchyate. Tada kim bhavati? Anantarasya vidhi sutra seva pratishedha bhavati. Anantarasya nama. अस्मात् प्रतिषेधसूत्र फस्ट् सूत्र इस् अ विधिसूत्र एण्ड् देन् देर् इस् सम् एय्त् सूत्र इस् अनदर् विधिसूत्र एण्ड् से फिफ्टीन्त् इस् अ प्रतिषेधसूत्र सो देर् आर् त्री सूत्र वन् एय्ट् एण्ड् फिफ्टीन् एकं प्रथमं विधिसूत्रम् अष्टममपि विधिसूत्रं पञ्चदशं निषेधसूत्रम् इति चिन्तयामः तस्मिन्श्चित् प्रकरणे लैक् वी हेव् इन् दिस् अणत्वप्रकरणं देर् आर् मेनि सूत्र स्केटर्ड् Where there are several vidhi sutras and several nishedha sutras. Now, kasya pratishedha, panchadasha sutrena kasya pratishedha bhavati, prathama sutrasya bhavati va, ashtama sutrasya bhavati va, iti prashne, anantarasya vidhirva bhavati, pratishedho va, iti paribhashaya kim jayate, that which is immediately before or after a nishedha sutra will be affected by that nishedha sutra. And, there is it will not affect the others so as Vaishnavanji said we did it in atogune so is atogune an exception to atasavarna dirgha or prathamayo purva savarna iti prashne asti anantarasya vidhirva bhavati pratishedha vaityena atasavarna dirgha ityasyaiva apavadah natu prathamayo purva savarna ityasya api iti उच्यते रैट् सो अतो गुणे एस् 6197 अतस्सवर्णे दीर्घः एस् 6101 एण्ड् प्रथमयो पूर्वसवर्णः एस् 102 अतो गुणे इत्यनेन कस्य बाधः भवति इति चेत् अनन्तरस्य ओन्ली द इमीडियट्लि प्रिसीडिङ्ग् आर् फालोयिङ्ग् अनन्तर अन्तरः नाम गेप् अनन्तरः भवति अथवा प्रतिषेधः भवति अन्तरस्य सो अन्येषां न भवति सो लॉजिकली हन्तेर पूर्वस्य हन्तेः इत्युक्त्वा पूर्वस्य इति नियमः क्रियते सः नियमः तस्य सूत्रस्य इति चेत् हन्तेः इति विहितस्य आत्मत्वस्यैव सो अकॉर्डिंग टू दिस परिभाषा दिस अपूर्वस्य शुड बी अ नियम ओनली फॉर हन्तेः विच मीन्स उपसर्गस्थान निमित्तात् परस्य हन्तेः नस्यणत्वं भवति चेत् अत्पूर्वस्यैव इति नियमः भवेत् इफ् हनुधातु इस् टु गेट् अन् अत्वा ड्यू टु अ निमित्त एन् उपसर्ग देन् इट् विल् गेट् ओन्ली इफ् इट् इस् प्रिसीडेड् बै नकार दट् शुड् एक्चुअलि बि द नियम किन्तु तथा नियमः क्रियते चेत् प्रयोजनं नास्ति योगविभागस्य प्रयोजनं नास्ति योगविभागं विनापि तादृशः अर्थः सिद्ध्यति हन्तेरत्पूर्वस्य इति एकमेव सूत्रं भवति चेदपि उपसर्गस्थान्निमित्तान्तरस्य अत्पूर्वस्यैव हन्तेर्नस्य भवति इति नियमः सिद्ध्यति तर्हि योगविभागस्य किं प्रयोजनम् इति प्रश्ने योगविभागसामर्थ्यात् सो बै जस्ट् टु मेक् योगविभाग इफेक्टिव् अदर्वैस् देर् इस् नो पायिण्ट् वेदर् इट् इस् वन् सूत्र टु सूत्र इफ् यु आर् गेटिङ्ग् द सेम् थिङ्ग् इट् इस् अ वेस्ट् अतः योगविभागसामर्थ्यात् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा ओवर् रूलिङ्ग् दट् परिभाषा एकादशतरपदेण इति णत्वमपि निवर्तते सो दिस् नियम अप्लैस् नाट् ओन्लि टु द इमीडियट्लि प्रिसीडिङ्ग् हन्तेः बट् आल्सो टु एकादशतरपदेण विच् मीन्स् इन् केस् आफ् एनी णत्वा हन्तेः णत्वं भवति चेत् अत्पूर्वस्यैव भवति हनुधातोः नकारस्य णत्वं भवति चेत् अकारपूर्वस्यैव नान्यस्य इति नियमः सार्वत्रिकः सो इट् अप्लैस् एस् अ जनरल् रूल् टु आल् णत्वा एण्ड् नाट् ओन्ली टु द णत्वा बीङ्ग् मेण्डेटेड् बै हन्तेः सो हौ डु वि गेट् सच् अ वैडन्ड् नियम फार् दिस् इस् बिकास् आफ् योगविभाग यदि योगविभागः नास्ति तर्हि एकस्मिन् एव विषये अर्थात् उपसर्गस्थान्निमित्तात् परस्य हन्तेः नस्य विषये एव अस्पूर्वस्य इति नियमः स्यात् योगविभागसामर्थ्यात् एकादुत्तरपदेण इति णत्वमपि अस्पूर्वस्यैव हन्तेः भवति यत्र हन्तेः मकारः अकारपूर्वः नकारात् प्राक् अकारः विद्यते तत्रैव णत्वं भवति इति नियमः क्रियते तेन अस्माकं वृत्रघ्नः इत्यस्ति घ् न् इत्यस्ति तत्र अकारपूर्वत्वं नास्ति अतः णत्वं न भवति That is one question with Vritraghnaha. There is one more question. Vritraghnaha etcetera kutvam kutam. Ho hantera nimneshu janena hakaraha kutaha. Makare pare hakarasya kutvam bhavati etcetera hakara kutaha. Tatra akara lokasya khaniyadhavaha bhavati va. Allopona etcetera अकारस्य लोपकृतः वृत्रहन् अस्ति इत्यस्ति अल्लोपोनः इत्यनेन अकारे लुप्ते वृत्रह् न् अस्ति इति भवति ततः नकारे परे हकारस्य कृत्वे वृत्रघ् न् अस्ति वृत्रघ्नः इति भवति तत्र कृत्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावः अस्ति वा इति प्रश्नः अतः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावे सति कृत्वं न स्यात् So if you have sthanivadbhava, kutva will not happen because hakara is not followed immediately by nakara. Madhye akaraha asti ke kutvam na bhavati. Kuta sthanivadbhava nasti, ajak parasmin puranitho. Paranimittaha ajadeshaha, shasvatya nimittaha, akarasya loparupaha adeshaha sthanivadbhavati. Sthanibhutadajaha, akarat purvatvena drishtasya, hakarasya kutve kattavye. Iti sthanivadbhava bhavet kila. मकारे परे पुत्र विधि सामर्थ्य। सूत्र से हंते है हकार से नीति नीति मकारे परे पुत्र भवति इति उच्यते। नाउ ऑलवेज हंति द हकार ऑफ हन धातु कैन बी फॉलोड बाय नकार ओनली इफ देयर इज अलोप अलोपे कृते एव हकार से नकार परत्वं सिद्ध्यति। हन इत्यत्र हकार अकार नकार सन्ति। यदा अकारः लिप्यते तदैव हकारस्य नकारफलत्वं सिद्ध्यति। यदि सर्वत्र अल्लोपः स्थानवद्भावेन आनीयते तर्हि नकारे परे कुत्वम् इत्यस्य कुत्र उदाहरणं स्यात्। सो वी विल नॉट बी एबल टू शो एन एग्जांपल फॉर कोहंतेर निम्नेषु इन केस ऑफ नकार। हन्तेः हकारस्य नकारे परे कुत्वं भवति इत्यस्य उदाहरणं प्रदर्शयितुं न शक्नुमः। किमर्थं सर्वत्र अल्लोपे कृते एव हकारस्य नकारपरकत्वं सिद्ध्यति। यदि सर्वत्र अल्लोपस्य स्थानिवद्भावः स्यात् तर्हि सूत्रस्य उदाहरणमेव न स्यात्। सूत्रस्य नाम नेषु नकारे परे कुत्वम् इत्यस्य उदाहरणं न स्यात्। अतः नकारे परे कुत्वविधिसामर्थ्यात् नकारे परे कुत्वं विधीयते इत्येतदेव ज्ञापयति। अस्मिन् विषये अल्लोपस्य स्थानिवद्भावः नास्ति। वृत्रघ्नः फैनलि वि अरैव्ड् अट् द रूप वृत्रघ्नः। नत्वं भवति वा न वा इति प्रश्नः न भवति इति उत्तरं हन्ते रत्पूर्वस्य इत्यत्र योगविभागात् अत्पूर्वस्य इति नियमः क्रियते। नत्वस्य हन्तेः हकारस्य यदि नत्वं भवति तर्हि अकारपूर्वस्यैव इति नियमः क्रियते। तेन नत्वं वारितुम् अल्लोपः अल्लोपस्य स्थानिवद्भावः आशङ्कितः कुत्वविषु सामर्थ्यादेव सोऽपि वारितः। वृत्रहणं वृत्रहणौ वृत्रघ्नः यत् वृत्रघ्नः इत्यादौ वैकल्पिकं नत्वं माधवेन उक्तं तद् भाष्यवाचकविद्धम्। माधवाचार्यः माधवीया धातुवृत्तिः इति ग्रन्थः विद्यते, अत्यन्तं प्रसिद्धः प्रामाणिकश्च। So this one, Madhava is the author of Dhatuvritti. So in Dhatuvritti, he takes up many sutras which are concerned with dhatus and he gives examples and he talks about it. So Madhava says, Vritraghnaha ityadav vikalpena natvam bhavati iti uchyate. So kena ityadi astra noktam vichyatam. So he comes to the conclusion that in Vritraghnaha there can be an optional natva, but bhashya vartika virustham. सिंगल थिंग इट इज अगेन्स्ट भाष्य एंड वार्तिक। सो अस्माकं मुनित्रयं प्रमाणं व्हाट एवर इज सेड इन सूत्र वार्तिक भाष्य इज द अथॉरिटी। सो भाष्य विरुद्धं इति चेत् न स्वीक्रियते, प्रामाणिकैः न स्वीक्रियते इत्येव। सूत्रग्रह इति अनत्वं न भवति इत्येव सिद्धान्तः। उत्ग्रहं शब्दः वृत्रः वृत्रहणौ वृत्रहणः इत्यादि सर्वनामस्थाने परे इन्हन्पूषार्यम्नां शौ इति नियमात् उपधादीर्घः। शावेव उपधादीर्घः इति कृत्वात् अत्र क्वापि उपधादीर्घः न भवति। सुप्रत्यये परे तु शौच इति विशेषेण उक्तत्वात् दीर्घः वृत्रः इति श्रूयते। शस्त्रभृतिषु अजादिषु यत्र प्रथम्या अस्ति तत्र अल्लोपे कृते कोहन्तेरनिम्नेषु इत्यनेन कृत्वे वृत्रघ्नः वृत्रघ्नः वृत्रघ्ने इत्यादीनि रूपाणि। सप्तमी एकवचने इमौ महाशानिष्योः इत्यनेन विकल्पेन अल्लोपः अल्लोपे कृते कृत्वे वृत्रघ्नि इति रूपम्। अल्लोपाभावे कर्तं भवति वृत्रहणि। हलादिषु प्रत्ययेषु तु किं वृत्रहण्भ्यां नलोपप्रातिपदिकान्तस्य इति नलोपः भवति। अल्लोपभिन्नेषु रूपेषु एकादुत्तरपदेणः इति वक्तुं यत्र अल्लोपः नास्ति तत्रैव नक्तं वृत्रहणौ वृत्रहणः अत्रापि वृत्रहणि। अल्लोपे कृते तु अत्पूर्वस्य इति नियमात् हन्तेरत्पूर्वस्य इत्यत्र योगं भूत्वा अत्पूर्वस्य इति नियमः कृतः तेन नत्वं न भवति इत्यर्थः। नो 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 भाष्यकार भाष्यकारेण क्रियते विष्णो परम नाम शांगम धनु विष्णो धनुषः शांगम इति नाम शांगम अस्य अस्ति इत्यर्थे शांग इति प्रातिपदिकात् अत इनि धनौ इति सूत्रेण सद्धितः मतुवर्थः अस्य अस्ति तदस्य अस्ति मतुवः अर्थः तस्मिन् अर्थे इनि प्रत्ययः शांग इनि इति भवति यस्य इनि इत्यत्र इकारस्य इत्संज्ञा इन् इत्येव प्रत्ययः शांग इत्यत्र अकारस्य यस्येऽपि च इति लोके शाङ्गिन् इति प्रातिपदिकम् इन्नं तत्त्वात् इन् हन् कोश अव्यम्नाम् इति उच्यते तत्र अन्येषाम् उदाहरणं प्रदीयते इदानीं तर्हि इन् हन् कोश अव्यम्नां सौ गिविङ्ग् अदर् एक्साम्पल्स् फर् सो इन्नन्तम् अस्ति शाङ्गिन् शब्दः इन्नन्तत्वात् सौ एव उपधादीर्थः शौ तेन सूत्रेण शौ उपधादीर्थः सौ च इति सूत्रेण सुप्रत्यये परे डीलिङ्ग् वित् पुल्लिङ्गस् वि विल् नाट् मीट् शी हियर् नपुंसकलिङ्गे एव शी इत्यस्य पुल्लिङ्गे तु केवलं सुप्रत्यये परे शौच इत्यनेन उपधादीर्थः भवति अन्यत्र सर्वनामस्थानेषु तेन नियमेन इन्हन् पुषायामांशौ इति नियमात् उपधादीर्थः नास्ति एण्ड् अल्लोपस्य प्रसक्तिरेव नास्ति अस्मिन् पदे शाङ्गि शाङ्गिन् अकारः नास्ति अन् इति नास्ति यद्यपि नकारान्तं प्रातिपदिकम् अन् इति नास्ति प्रातिपदिको अकार इन् द प्रातिपदिकर् वाट् एवर् वि राजन् प्रतिदिनं यज्ञन् ब्रह्मन् रुद्रहं सर्वत्र अकारः अस्ति अत्र तु अकारः नास्ति अतः अल्लोकस्य प्रसक्तिरेव नास्ति कथं भवति शाङ्गी साङ्गिणौ साङ्गिणः गुणि गुणिनौ गुणिनः दण्डी दण्डिनौ दण्डिनः लाट्स् आफ् इन्नन्त वर्ड्स् इन् धनी धनिनौ धनिनः सर्वत्र इन्नन्तत्वमस्ति सर्वेषु शब्देषु सर्वनामस्थाने परे उपधादीर्थः नास्ति शाङ्गिणौ शाङ्गिनः इति ह्रस्वः एव श्रूयते केवलं सुप्रत्यये परे शौच इत्यनेन उपधादीर्थः शाङ्गी इति अस्ति शस्प्रत्ययादारभ्य कार्यं नास्ति शिष्यं शाङ्गिनः शाङ्गिन् शां फलादिषु तु नकारलोपः भवति विशिष्टं कार्यं किमपि नास्ति अत्र रेफः अस्ति इत्यतः अस्कुप्वाङ्गं व्यवायति इति नत्वमपि भवति यत्र नकारः अस्ति तस्य नत्वमपि नथिङ्ग् स्पेशल् अबौट् दिस् एक्सेप्ट् दट् द सूत्र इन्धन् पूषार्यं नांशौ अप्लै अप्लै I am sorry, this is a wrong issue. Shakar, it's a typing mistake. Because Nalopa is Siddha for Adesha Pratyayo. Right. Oh. Dandi. Oh. Oh, okay. Okay. Yeah, there is Shatva here.
भूतानिषु इत्येव भूमिषु किमस्ति गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः गुणाः पूजास्थानं खलु एनि पर्सन् क्वालिटि विच् शुड् बि वर्शिप् और् शुड् बि रेस्पेक्टेड् गुणिषु अमङ्ग् पीपल् हु हाव् गुड् क्वालिटि न च लिङ्गं न च वयः यु शुड् नाट् लुक् एट् थिङ्ग्स् लैक् जेण्डर् और् एज् So even if it is a young boy or even if it is whoever is telling, if it is right, you should take it. So it is, Shastra is there. The question is Nalopa Siddha or Asiddha? So Nalopa is Siddha for Shastra. Shastram Bhavati Shangishu Maya Dosha Siddha. Yashatvinna Yashaha Asti 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 Asmaya Medha Sajo Vihi इति सूत्रेण नि प्रत्ययः यु हाव् यशस् अण्ड् इन् यशस्विन् प्रश्नः अत्र इन्द्रङ्कोचार्यं नांशौ इति नियमः प्रवर्तते वा न वा केन् विन् बि कन्सिडर्ड् अस् इन् आर् नाट् इति प्रश्नः किमर्थं प्रश्नः अर्थवद् ग्रहणे नानर्थकस्य ग्रहणम् इति परिभाषा अर्थवद् ग्रहणे यत्र अर्थवतः ग्रहणस्य सम्भवः अस्ति तत्र अनर्थकस्य ग्रहणं नास्ति इति परिभाषा विद्यते सो वेरेवर् देर् इस् पासिबिलिटि आफ् एनिथिङ्ग् इण्डिकेटेड् इन् द सूत्र बीङ्ग् अर्थवत् हेविङ्ग् एन् अर्थ वि शुड् टेक् द वन् विच् क्यारीस् मीनिङ्ग् एन् नाट् अ पार्ट् आफ् सम्थिङ्ग् एल्स् ओके सो वि So, Gyanpata for this is a sutra where he says Raja and Khaja. Raja dhatohu kimati kariyam yadi ucchate. Tarhi Khaja dhatohu yaha Raja iti tasya na bhavati. Iti asya Gyanpata. We have already seen this earlier. So, if there is something being told for Raja, then will it apply for Raja is a question. Raja also has Raja as a part of it. Now, The Raj Dhatu itself is Arthavat. It has carries a meaning. Hintu, Raj ityasya ekadeshaha yaha Raj, tasya Arthavatvam nasti. Only the entire Raj carries a meaning and the Raj part of Raj does not have a meaning. So Arthavat grahane anarthukasya grahanam nabhavati. Tathada kim grahitavyam kevalam Arthavat yaha Arthavan yaha Raj iti shabdaswarupa. शब्दः तस्यैव ग्रहणं भवति राज् इत्यस्य ग्रहणं नास्ति इति इयं परिभाषा वदति अर्थवद्ग्रहणे अनर्थकस्य ग्रहणं नास्ति इदानीमत्रापि इन् विन् इत्युक्ते इन्हन्पूषार्यं नांशौ इति उच्यते सो इन् इन् इति प्रत्यये स्वयं शाङ्गु इन् इत्येव प्रत्ययः अस्ति तस्मिन् प्रत्यये इन् इत्यस्य अर्थवत्त्वम् अस्ति विन् इत्यत्र तु पूर्णं विन् इत्य एव अर्थवत्त्वं केवलम् इन् इत्यस्य अर्थवत्त्वं नास्ति पार्ट् इन् पार्ट् आफ् विन् डस् नाट् केरि अ मीनिङ्ग् आफ् इट्स् ओन् वेर् इट् इस् इन् प्रत्यय इट्सेल्फ् देर् इस् अ मीनिङ्ग् अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् इति परिभाषया इन्हन् पूषार्यं नांशौ इत्यत्र केवलस्य इन् प्रत्ययस्यैव ग्रहणं स्यात् विन् इत्यस्य ग्रहणं न स्यात् तदा किमुच्यते इयं परिभाषा एनां परिभाषां बाधित्वा अन्या परिभाषा विद्यते अनिनस्मन् ग्रहणानि अर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति अन् इन् अस् मन् ग्रहणानि यूजुवल् परिभाषा जनरल् परिभाषा इस् अर्थवद्ग्रहणेन अनर्थकस्य ग्रहणं किन्तु अन् इन् अस् मन् ग्रहणानि वेरेवर् द सूत्रकार इन् अ सूत्र टेक्स् अप् अन् इन् अस् और् मन् एतेषां ग्रहणं यत्र अस्ति तत्र अर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयति अर्थवता अपि तदन्तविधिर्भवति अनर्थकेनापि तदन्तविधिः भवति इति परिभाषा सो दिस् इस् अ परिभाषा विच् एस् प्रसन् एक्सेप्शन् टु अर्थवद्ग्रहणे नानर्थकस्य ग्रहणे सो दिस् दट् इस् अ जनरल् परिभाषा एण्ड् दिस् इस् एन् एक्सेप्शन् इत्युक्ते
In case of an, in, as and man, whether it is arthavat or anarthata, you can still take it up. Arthadatra, inantanam vishaye, inhan poshan nityadi uchyate. So, yatra in, kevalaha in iti arthavat bhavati, tatrapi ayam niyamaha bhavati. In ityatra inaha anarthakatveti bhavati. Tataya uchyate. Yashasvin iti in prakteye, inaha anarthakatveti. Even though in part of Yashasvin, in is anarthaka, inhan ityatra grahanam bhavatyeva. Inhan pusharyam naam shau ityarena, inhan tanam shaveva upadhadi sahayati ityate, tatra asyapi grahanam bhavati. Kimartham, aninasman grahanani arthavatas anarthakena cha tadanta vidhim prayojayati iti vatanat. Eva muktam iti karanena, inaha api grahanam asti, inaha api grahanam asti. Tadakim bhavati, yashasvin shabdasya rupani, sanghin yashasya yatha tathaiva bhavanti. Tau upadhadirthaha, anyesha sarvanamasthaneshu upadhadirthaha nasti, shakadishu agadav pratyaye kimati karyam nasti, haladi pratyaye makarasya lopaha. Ityetani karyani. Matvam na bhavati, shangirav shaginaha iti matvam, yashasvin yajyatradu natvasya nimittaha nasti. So, yashasvi, ఏషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్వినోషస్
शब्दः सो दिस अगेन विल गो बैक टू लाइक वृत्रहन वृत्रः वृत्रहणौ वृत्रहणः इति वद अर्यमा अर्यमणौ अर्यमणः सुप्रत्यये उपधादीपः अन्यत्र नास्ति अल्लोपः भवति सर्वनकार अल्लोपो नः इत्यनेन अल्लोपः भवति ङीप्रत्यये घाशानिश्योः इति वा अल्लोपः सो वित् जस्ट् अ सिङ्गल् एक्साम्पल् हि टेल्स् एव्रिथिङ्ग् दीक्षित कवरिङ्ग् एव्रिथिङ्ग् हि शोस् दट् देर् इस् अल्लोप हि शोस् देर् इस् वैकल्पिक अल्लोप इन् मी रथम् अस्ति रेफः अस्ति इत्यतः तत्कुपङ्गम्यमायते इति नत्वं भवति अर्यम्णि अर्यमणि एवं पूष्णि पूषं पूषणि पूषन् शब्दः तत्रापि एवमेव पूषा पूषणौ पूषणः इति भवति सो अर्यमन् अण्ड् पूषन् बोत् सिमिलर् सर्वनामस्थाने परे इन्हन् पूष अर्यम्णाम् इति उक्तत्वात् उपधादीर्घः नास्ति सुप्रत्यये परे सौख्य इति दीर्घः शस्त्रप्रतिषु अगादिषु प्रत्ययेषु अल्लोपोणः इति भवति सप्तम्यकवचनेषु भाषानिश्चयः इति भवति नलोपः अस्ति अस्तुपाङ्गं निवायति इत्यनेन भूषन् इत्यत्रापि षकारः अस्ति रषाभ्यां रेफः अथवा षकारः अस्ति चेत् सोपि तथैव पूषा पूषणौ पूषणः इत्यादीनि रूपाणि पर्यमन् अण्ड् पूषन् पर्याय फार् सूर्य सूरसूर्यार्यमादित्य द्वादशाष्टनिराकराः इत्यादि अमरः स्वर्यमन् इति सूर्यस्य एवं पूषन् इत्युक्ते सूर्यस्य पर्यायपदम् आर्य फ्रम् अर्य
सर्वमपि आर्य आर्य सर्वाणि पदानि ऋ इति धातोः भवन्ति. ऋ गतौ इति धातुः तस्य धातोः भिन्नेषु प्रत्ययेषु परेषु there are different pratyayas which are done. So if you have a vriddhi, it becomes arya. Ru ityasya vritthau arya iti bhavati. Ru ityasya vritthau arya iti bhavati. So arya itself is depending on the nyat pratyaya for ru, and arya is yat pratyaya for ru. But aryaman is again different. Aryaman could be the same nishpati. I do not know the exact nishpati for aryaman. But arya and arya are both from ऋ धातु. तथापि तथैव स्यात्. सरतीति सूर्यः इति उच्यते, तथैव रुच्छति इति अर्यमन् इति भवेत् अस्य लुखितम्. ऐ डोण्ट् नो द एक्साक्ट् निष्पत्ति आफ् अर्यमन्.
वैयाकरणसिद्धान्तकौमुदी रक्षते.